प्रकारवो मनना वच्यमाना दे भद्रे चे इन्न जतदे भजन्ताः दक्षिणावाट्वाजिने प्राच्ये देहविर्भरन् जग्नजे घृताचे आरोदसे अवृणाजाजमान उत प्ररिक्था अधनु प्रयज्य दिवश्चिदग्ने महिना पृथिव्या वच्यन्दान्ते वह्नयः सप्त जिह्वाः द्योश्चत्वा पृथिवी जग्निजा सो निहोतारं साधयन्ते तमाज यदि विषमानुषेऽर्ते भजन्तेः प्रजस्वते रीळते शुक्रमर्चिः महान् सधस्थे ध्रुव अनिषत्तोऽन्तर्द्या वा वाहिने हर्यमाणः आस्क्रे सपत्नी अजरे अमृक्ते सभर्दुघे उरुगाजस्य धेनो व्रताते अग्ने महतो महानितवक्रत्वारोदसी आतदन्ध त्वन्दूतो अभवो जाजमानस्त्वन्नेता वृषभचर्षणीनाम् ऋतस्य वा केशिना योग्याभिर्घृतस्त्ववारोहिता धुरिधिष्वा अथ वः देवान्दे भविष्वान्स्वध्वरा कृणुहि जातवेदः दिवश्चिदाते रुचयन्तरोका उषो विभातेरनुभासि पूर्वीः अपोजदग्न उषधग्वने शुहोतुर्मन्द्रस्य पनयन्त देवाः उरौ भाजे अन्तरिक्षे मदन्ति दिवो भाजे रोचने सन्ति देवाः भूमा भाजे सुहवा सोजचत्रा आजे बिरे रथ्यो अग्ने अश्वाः अयिभिरग्ने सरधैया ह्यर्वाङ्नारथम् वा विभवो ह्यश्वाः पत्ने एव तस्त्रिंशतम् त्रींश्च देवाननुश्वधमावहमादजस्व स होताजस्य रोदसी चिदुर्वीजग्नञ्जग्नमभिवृधे गृणीतः प्राची अध्वरेव तस्थतु सुमेके ऋतावरी ऋतजा तस्य सत्ये इळामग्ने पुरुदम् सम् सनिङ्गो शश्वत्तमम् हवमानाय साध स्यान्नः सोऽनुस्तनजो विजावाग्ने सा ते सुमतिर्भो त्वस्मे